द्वितीयोऽध्यायः जनकेन सूक्ष्मतत्त्वं बुद्ध्वा आश्चर्येण स्वानुभवकथनम्। जनक उवाच, अहो निरञ्जनशान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालं मोहेनैव विडम्बितः। यथा प्रकाशयाम्येको देहमेनं तथा जगत्, अतो मम जगत्सर्वम् अथवा न च किञ्चन। सशरीरमहो विश्वम् परित्यज्य मयाधुना, कुतश्चित् कौशलादेव परमात्मा विलोक्यते। यथा नतो यतो भिन्ना तरङ्गाः फेनबुद्बुदाः, आत्मनो न तथा भिन्नम् विश्वमात्मविनिर्गतम्। तन्तुमात्रो भवेदेव पटो यद्वद्विचारितः, आत्मतन्मात्रमेवेदम् तद्वद्विश्वम् विचारितम्। यथैवेक्षुरसे क्लुप्ता तेन व्याप्तैव शर्करा, तथा विश्वम् मयि क्लुप्तम् मया व्याप्तम् निरन्तरम्। आत्माज्ञानादगद्भाति आत्मज्ञानात् न भासते, रज्ज्वज्ञानादाहिर्भाति तज्ज्ञानात् भासते नहि। प्रकाशो मे निजम् रूपम् नातिरिक्तोऽस्म्यहम् ततः, यदा प्रकाशते विश्वम् तदाहम् भास एव हि। अहो विकल्पितम् विश्वम् अज्ञानात् मयि भासते, रूप्यम् शुक्तौ फणीरज्जौ वारिसूर्यकरे यथा। मत्तो विनिर्गतम् विश्वम् मय्येव लयमेष्यति, मृदि कुम्भो जले वीचिः कनके कटकम् यथा। अहो अहम् नमो मह्यम् विनाशो यस्य नास्ति मे, ब्रह्मादिस्तम्भपर्यन्तम् जगन्नाशेऽपि तिष्ठतः। अहो अहम् नमो मह्यम् एकोऽहम् देहवानपि, क्वचिन्नगन्ता नागन्ता व्याप्य विश्वमवस्थितः। अहो अहम् नमो मह्यम् दक्षो नास्तीह मत्समः, असंस्पृश्य शरीरेण येन विश्वम् चिरम् धृतम्। अहो अहम् नमो मह्यम् यस्य मे नास्ति किञ्चन, अथवा यस्य मे सर्वम् यद्वाङ्मनसगोचरम्। ज्ञानम् ज्ञेयम् तथा ज्ञाता त्रितयम् नास्ति वास्तवम्। अज्ञानाद्भाति यत्रेदम् सोऽहमस्मि निरञ्जनः। द्वैतमूलमहो दुःखम् नान्यत्तस्यास्ति भेषजम्, दृश्यमेतन्मृषा सर्वम् एकोऽहम् छिद्रसोमलः। बोधमात्रोऽहमज्ञानात् उपाधिः कल्पितो मया, एवम् विमृशतो नित्यम् निर्विकल्पे स्थितिर्मम। न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया। अहो मयि स्थितम् विश्वम् वस्तुतो न मयि स्थितम्, सशरीरमिदम् विश्वम् न किञ्चिदिति निश्चितम्। शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना, शरीरम् स्वर्गनरकौ बन्धमोक्षौ भयम् तथा। कल्पनामात्रमेवैतत् किम् मे कार्यम् चिदात्मनः। अहो जनसमूहेऽपि न द्वैतम् पश्यतो मम, अरण्यमिव संवृत्तम् क्व रतिम् करवाण्यहम्। नाहम् देहो न मे देहः, जीवो नाहम् अहम् हि चित्, अयमेव हि मे बन्धः आसीद्या जीविते स्पृहा। अहो भुवनकल्लोलैः विचित्रैर्द्राक्समुत्थितम्, मय्यनन्तमहाम्बोधौ चित्तवाते समुद्यते, मय्यनन्तमहाम्बोधौ चित्तवाते प्रशाम्यति। अभाग्याज्जीववणिजः जगत्पोतो विनश्वरः, मय्यनन्तमहाम्बोधौ आश्चर्यम् जीववीचयः, उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः। ओ